एस रेडियो नेपाल सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः। एयर डायनेस्टी नाम्न्याः वायुसेवायाः हेलिकप्टर यानि दुर्घटिते सति पञ्च जनाः मृताः सन्ति। ह्यो दिवा भक्तपुरस्य नालिनचोक स्थानात् रसुवा जनपदस्य स्याफ्रुवेसी स्थानाय विमानस्य प्रस्थानानन्तरं नुवाकोट जनपदस्य शिवपुरी ग्रामपालिकायाः सप्तमवडा क्षेत्रस्य सूर्यचौर स्थाने दुर्घटना दुर्घटितता आसीत्। हेलिकप्टर यान दुर्घटनायां चालकेन अरूण मल्लेन सह चत्वारः चीन देशीय नागरिकाः मृताः सन्ति। नेपाल नागरिकोड्डयन प्राधिकरणस्य अनुसारेण मृतकेषु जनेषु हेलिकप्टर यान चालकः अरूण मल्ल, चीन देशीय नागरिकाः जुताड ताङ, ताई ली, इयाङ वु, जेमिङ जी च वर्तन्ते। दुर्घटनायां मृताका नाम सभा संकलय, परीक्षणाय महाराजगंज वर्तिनी त्रिभुवन विश्वविद्यालय शिक्षण चिकित्सालय अनिता सन्तीति प्राधिकरणेन ज्ञापितं वर्तते। सर्वकारेण हेलिकप्टर यान दुर्घटनायाः अनुसन्धानं विधाय प्रतिवेदनं प्रस्तुतुम् अनुसन्धानायोगः संघटितो वर्तते। सीमाप्रसाद वर्तिनी प्रधानमन्त्री मन्त्रिपरिषदः कार्यालये ह्य उपविष्टेन मन्त्रिपरिषदः आकस्मिकोपवेशेन नेपाली सेनाया वरिष्ठ विमान चालकस्य सुभाष थापाविदस्य संयोजकत्वे अनुसन्धानायोगं संघटयितुं निर्णीतमस्तीति उपवेशस्य पश्चात् सर्वकारस्य प्रवक्ता संचार सूचना प्रविधि मन्त्री च पृथ्वी सुब्बा गुरूङ अज्ञापयत्। त्रिसदस्यात्मके अनुसन्धानायोगे वायुयान यन्त्र सम्बद्ध स्थपति विष्णु बस्नेत, वरिष्ठ विभागीय वायुयान यन्त्र स्थपति तनुजा पोखरेलश्च सदस्यौ स्तः। आयोगाय 30 दिनानाम् अभ्यन्तरे प्रतिवेदनं प्रस्तुतुं कार्यादेशः निर्धारितो वर्तते। मन्त्रिपरिषदः उपवेशेन दुर्घटनायां मृतकेभ्यो जनेभ्य श्रद्धाञ्जलि समर्पणेन सह मृतकाः चत्वारो जना चीन देशीय नागरिकाः वर्तन्ते इत्यतः चीन देशं चीन देशीय जनतां च प्रति समवेदना व्यक्तास्तीति मन्त्री गुरूङ असूचयत्। राष्ट्रपतिना रामचन्द्र पौडेलेन हेलिकप्टर यान दुर्घटनायां मृतकेभ्यो जनेभ्य श्रद्धाञ्जलि व्यक्तास्ति। अथ च प्रधानमन्त्री केपी शर्मा ओली हेलिकप्टर यान दुर्घटनां प्रति दुःखं व्यनक्ति। प्रधानमन्त्री ओली विमान दुर्घटनायाः 14 दिवसानाम् अभ्यन्तरे एव पुनः दुरापन्नाम् हेलिकप्टर यान दुर्घटनां प्रति चिन्तां प्रकटयन् दुःखम् अभिव्यनक्। त्रयाणां प्रमुख राजनीतिक दलानां नेतृणां समक्षं शान्ति प्रक्रिया सम्बद्धे विधेयके सहजीकरणाय संघटितेन राजनीतिक दलेन राजनीतिक कार्यदलेन ह्य स्वस्य प्रतिवेदनम् अर्पितं वर्तते। सीमाप्रसादवर्तिनी प्रधानमन्त्री मन्त्रिपरिषद कार्यालये आयोजिते कार्यक्रमे प्रधानमन्त्रिणे नेकपा एमाले दलस्य अध्यक्षाय च केपी शर्मा ओलीने नेपाली कांग्रेस दलस्य सभापतये शेरबहादुर देउवा इत्यस्मै नेकपा माओवादी केन्द्रस्य अध्यक्षाय पुष्पकमला दाहाल प्रचण्डाय च विलोपितानाम् व्यक्तिनाम् अनुसन्धान सत्यनिरूपण मेलायोगेन सम्बद्धम् एकसप्तत्युत्तर 2000 विक्रम वर्षीयम् अधिनियम संशोधयितुम् निर्मिते विधेयके कार्यदलेन विहितया सहमत्या सहितं प्रतिवेदनम् हस्तान्तरितं वर्तते। प्रतिवेदन हस्तान्तरण कार्यक्रमे प्रधानमन्त्री ओली शान्ति प्रक्रियायाः अवशिष्टाय कार्याय अन्तिमरूपं प्रदातुं विधिगत रूपेण स्थितं द्वैविध्यम् अपगतम् अस्तीति उदैरयत्। प्रधानमन्त्री ओली सर्वेषां दलानां विमर्शनेन सहमत्या च प्रतिवेदनं निर्मितम् अस्तीत्यतः अतपरं समितिः तः सर्वसम्मत्या पारितीकृत्य संसदः अस्मादेव अधिवेशनात् विधेयकं पारितीकरिष्यते इति प्रतिबद्धतां व्यक्तवान्। नेपाली कांग्रेस दलस्य सभापतिः देउवा अगदत् कार्यदलेन नेपालीनः स्वस्य विवादं स्वेनैव समाधातुं समर्था सन्तीति सन्देशं प्रसार्य विश्वस्मै अनुकरणीयम् उदाहरणं प्रस्तुतम् अस्तीति उक्तम् वर्तते। नेकपा माओवादी केन्द्रस्य अध्यक्ष पुष्पकमला दाहाल प्रचण्ड पीडितेभ्य न्याय प्रदानत्वेन प्रतिवेदनं निर्मितम् अस्तीति निगद्य संसद वैधानिक प्रक्रियात अस्मादेव अधिवेशनात् विषयममुं निष्कर्षे प्रापयितुं सर्वकारम् अन्वरुणात्। कार्यक्रमे गृहमन्त्री रमेश लेखकः द्वन्द्व पीडितान् जनान् केन्द्रे संस्थाप्य मेलायोगस्य विषये सशस्त्र द्वन्द्वे अंगभंगेभ्यो जनेभ्य क्षतिपूर्ति प्रदानस्य दण्डनस्य च विषययोश्च सहमति धृतास्तीति असूचयत्। राष्ट्रपति रामचन्द्र पौडेल कथयति स्थिर शान्तेः सुशासनस्य विकास समृद्ध्योश्च आकांक्षायाः पूरणस्य सांविधानिक दायित्वं सर्वैः आत्मसात् कर्तव्यम्। नेपाल जनप्रशासन संघेन आयोजितम् हेमबहादुर मल्ल सम्मानार्पण समारोहम् इह काष्ठमण्डपे सम्बोधयन् राष्ट्रपति पौडेल राज्येन प्रदीयमानेषु सौविध्येषु जनताया समान प्राप्तिम् सुनिश्चित्य सुशासनाय प्रत्याभूतिम् दापयितुम् समर्थे सत्येव शान्तेः सुशासनस्य विकास समृद्ध्यश्च आकांक्षा पूरयिष्यतीति प्रत्यपादयत्। कार्यक्रमे संघीय विषय सामान्य प्रशासन मन्त्री राजकुमार गुप्ता स्तरत्रयस्यैव सेवा प्रवाहम् प्रभावकारिणीम् सम्पाद्य जनमुखिनम् प्रविधि मैत्रिणम् च सम्पादयितुम् वर्तमान सर्वकारः प्रतिबद्धोऽस्तीति अवोचत्। समारोहे राष्ट्रपतिः पौडेलः लक्षद्वय रूप्यकाणाम् 79,200 विक्रम वर्षीयम् हेमबहादुर मल्ल सम्मानम् कौटनीतिज्ञाय प्रशासनविदे डाक्टर भेषबहादुर थापा विधाय प्रदत्तवान् आसीत्। प्रधानमन्त्री केपी शर्मा ओली संघीयताया प्रभावकारिणे क्रियान्वयनाय पारस्परिक सहकार्येण संवादेन च सह जनताम् प्रति केन्द्रिता सन्त प्रवर्तनाय अनुरुणद्धि। उपत्यका पालिका प्रमुखाणाम् मञ्चस्य पदाधिकारी विषय सिंहप्रासादे भीते मेलने प्रधानमन्त्री ओली केन्द्रस्य स्थानीय सर्वकारस्य च मध्ये समन्वयम् धृत्वा समस्याम् समाधाय जनतायै सेवा प्रदानार्थम् बलम् प्रादात्। प्रधानमन्त्री ओली मार्गदीपानाम् विषये सम्बद्ध मन्त्रालयात् निकायाच्च ज्ञात्वा आवश्यकम् सहजीकरणम् विधास्यते। अवकर व्यवस्थापनस्य स्थिर समाधानम् कर्तुम् सर्वकार सचेष्टा स्थिति अगदत। तदवसरे मञ्चस्य पदाधिकारीभिः नेपाल विद्युत प्राधिकरणेन स्थानीय स्तरस्य नाम्नि स्वेच्छाचारितया मार्गदीपानाम् प्रदेय वित्त सम्बद्धम् प्रपत्रम् सम्प्रेष्य समस्या श्रेष्ठादिषु विषयेषु प्रधानमन्त्रिणः ध्यानाकर्षणम् विहितम् आसीत्। प्रधानमन्त्रिणा केपी शर्मा ओलिना सह नेपालस्य कृते यूरोपीय संघस्य राजदूतेन भेरोनिक लोरेन्चो इत्यनया ह्य शिष्टाचार मेलवार्ता विहिता वर्तते इति समाचाराः।